अथ वार्ताः। राष्ट्रपतिः द्रौपदी मुर्मुः अद्य रांचीनगरे नामकुम इत्यत्र राष्ट्रिय माध्यमिक कृषि संस्थानस्य शतवार्षिकं समारोहं सम्बोधयिष्यति। राष्ट्रपतिः अत्रावसरे विशिष्टमेकं प्रैष्यावरणपत्रस्य प्रैष्यमुद्रायाश्च अनावरणं करिष्यति। एतस्मिन् समारोहे राज्यपालः संतोषकुमार गंगवारः, केन्द्रीय कृषि कृषक कल्याण मन्त्री शिवराज सिंह चौहानः, रक्षा राज्यमन्त्री संजय सेठः, मुख्यमंत्री च हेमन्त सोरेनः उपस्थिताः भविष्यन्ति। प्रधानमंत्री नरेन्द्र मोदी अद्य महाराष्ट्रस्य वर्धास्थलस्य यात्रां करिष्यति। तत्र असौ राष्ट्रिय प्रधानमंत्री विश्वकर्मा कार्यक्रमे भागं भजिष्यति। कार्यक्रमावधौ प्रधानमंत्री विश्वकर्मा लाभार्थिभ्यः प्रमाणपत्राणि ऋणं च प्रदास्यति। तदनु श्रीमोदी महाराष्ट्रस्यैव अमरावती जनपदे पीएम मेगा इंटीग्रेटेड टेक्सटाइल्स रीजन्स एण्ड अपैरल इत्याख्यस्य उद्यानस्य आधारशिलां स्थापयिष्यति। प्रधानमंत्री महाराष्ट्र सर्वकारेण प्रतिष्ठितायाः आचार्य चाणक्य कौशल विकास केन्द्र योजनायाश्चापि शुभारम्भं करिष्यति। अनया योजनया राज्यस्य 15 आयुतः 45 आयुपर्यन्तं युवानः लाभान्विताः भविष्यन्ति। श्रीमोदी पुण्यश्लोक अहिल्याबाई अहिल्यादेवी होल्कर महिला नवाचार योजनायाः अपि शुभारम्भं विधास्यति। भाजपेति दलीयः वरिष्ठो नेता प्रधानमंत्री नरेन्द्र मोदी च न्यगादीत् यत् यावत् भारतीय जनता पार्टीति दलं शासनारूढं विद्यते तावत् पृथिव्यां कापि शक्तिः जम्मू कश्मीरे अनुच्छेदं 70+300 अनुच्छेदं 35 अ इत्येतौ पुनः आनेतुं न शक्नोति इति। ह्यः कटरा श्रीनगरयोः नैर्वाचनिक जनसभाः सम्बोधयता प्रधानमन्त्रिणा निगदितं यत् आविश्वं पश्यति यत् कथं जम्मूकश्मीरे निवसद्भिः जनैः लोकतन्त्रं प्रबलीक्रियते। मोदी प्रशासनेन निज तृतीय कार्यकालस्य शतदिनानि पूरितानि। शतदिवसावधौ प्रशासनेन अनेन कृषक मध्यम वर्ग महिला इत्यादिभ्यः सम्बद्ध विचारेभ्यः 15 लक्ष कोटि रूप्यकाणां परियोजनाः समारब्धाः। प्रशासनेन स्वास्थ्य आधारभूत शिक्षा सौविध्ययोः कृतेऽपि अनेके पदक्षेपाः उत्थापिताः। प्रधानमन्त्री नरेन्द्रमोदी त्रिदिवसीय यात्रायां संयुक्त राज्य अमेरिका देशस्य मासस्यास्य 21-23 दिनांकपर्यन्तं गमिष्यति। ह्यः नवदिल्ल्यां वार्ताहरान् सूचयन् विदेश सचिवः विक्रम मिश्री अवोचत् यत् अस्मिन् यात्रावधौ श्रीमोदी नैकेषु द्विपक्षीयेषु विषयेषु चर्चां कुर्वन् विभिन्नैः वैदेशिक नेतृभिः हितधारकैश्च सह परामर्शं विधास्यति। तेनोक्तं यत् अवसरेऽस्मिन् श्रीमोदी कतिपयैः उद्योगपतिभिः समम् अपि मेलनं करिष्यति। श्रीमोदी शनिवासरे डेलावेर नगरस्य विलिमिटन नगरे चतुर्थे क्वाड सम्मेलने च भागं भजिष्यति। अथ च प्रधानमन्त्री अमेरिकादेशे भारतीय प्रवासिभिः साकं संवादं विधास्यति। श्रीमिश्री अग्रे अवोचत् यत् श्रीमोदिनः जापान ऑस्ट्रेलिया देशयोः नेतृभिः साकमपि द्विपक्षीयोपवेशनानि सुनिश्चितानि सन्ति। तदनु प्रधानमन्त्री सोमवासरे संयुक्तराष्ट्रे शिखरसम्मेलनार्थं न्यूयॉर्कनगरं प्रति यास्यति। भरोत्तोलन प्रतिस्पर्धायां भारतस्य 17-वर्षीयः धनुष लोगनाथन इत्येषः स्पेनदेशस्य लियोन नगरे पुरुषाणां 55 किलोग्राम मितभारवर्गीयां कनिष्ठ विश्व भरोत्तोलन प्रतिस्पर्धायां कांस्यपदकं समर्जितवान् इति वार्ताः।